चन्द्रस्य शृणु नामानि शुभदानि महीपते यानि श्रुत्वा नरो दुःखान् मुच्यते नात्र संशयः सुधाकरो विधुः सोमो गौरब्जकुमुदप्रियः लोकप्रियः शुभ्रभानुः चन्द्रमारोहिणीपतिः शशीः मकरो राजा द्विजराजो निशाकरः आत्रेय इन्दुः शीतांशुरोषाधीशक्कलानितिः जैवादृको रमा भ्राता क्षीरोदार्णवसम्भवः नक्षत्रनायक शम्भुशिरश्चूडामणिर्विभुः तापहर्ता नभो दीपो नामान्येतानि यः पठेत् प्रत्यहं भक्तिसंयुक्तः तस्य पीडा विनश्यति तद्दिने च पठेद्यस्तु लभेत् सर्वं समीहितं ग्रहादीनां च सर्वेषां भवेच्चन्द्रबलं सदा।